Sir, I can't hear anything. Namaskar. I can't hear anything.
Even I can't hear.
I can't hear anything, sir. No, nothing I can't hear.
Namaste, Vibhya. Can you hear me now?
Yes, yes.
I'm okay. Now you're clear.
Okay. So last week we had seen the various professions, and also we began with Tasya and Etasya. So we will continue with the Tasya and Etasya. So this is essentially the sixth declension or the Shashti Vibhakti. So if we have Saha, right, we saw Saha is either that or he. That is why we are using Saha or Yeshaha, this or he. So we are using Yeshaha and Saha. Similarly, if you want to say something belongs to his or what is his name, then we are going to use etasya or tasya. Etasya or tasya. Tasya means his. Etasya also means his. So etasya is essentially used for kind of possessive usage. For example, saha ragavaha. Saha ragavaha. He is Raghavah. Tasya nama Raghavah. His name is Raghavah. So if you want to refer to his name now, then we can use the usage as Tasya. Tasya nama Raghavah. Tasya nama kim? Tasya nama Raghavah. So saha Raghavah. Tasya nama Raghavah. So we can either say he is Raghavah or his name is Raghava. If we are referring to his name, then we are going to use the usage as Tasya. Similarly, the question now is Kasya. Kasya means whose name is Raghava. Kasya nama Raghava. His name is Raghava will be the answer, and we'll say as Tasya nama Raghava. Astu. So Saha Raghava, Tasya nama Raghava, Kasya nama Raghavah. अस्तु. सो सिमिलर्लि सः रामः, सः रामः, सो हि इस् राम. तस्य नाम रामः, हिस् नेम् इस् राम. तस्य नाम किम्, तस्य नाम किं मीन्स् वाट् इस् हिस् नेम्, आर् हूस् नेम् इस् राम, देन् कस्य नाम रामः. हूस् नेम् इस् राम इस् कस्य नाम रामः. सिमिलर्लि तस्य नाम रामः, तस्य नाम किं मीन्स् वाट् इस् हिस् नेम्, तस्य नाम किम्. अस्तु, सो दिस् वुड् बि द यूसेज् फार् तस्य अण्ड् कस्य. कस्य इस् एसेन्शियलि आस्किङ्ग् द क्वशन्. सिमिलर्लि इफ् यु वाण्ट् टु यूस् तस्य इन् दि फार्म् आफ् अ क्वशन्, इट् विल् बिकम् तस्य नाम किम्. अस्तु, सो दिस् फार्म् इस् एसेन्शियलि षष्टि विभक्ति. सो फार् वी हव् सीन् रामः. रामः मीन्स् द फस्ट् रेफरेन्स्. सो वि विल् जनरलि यूस् दिस् एस् वाट् इस् कोल्ड् एस् प्रथमा विभक्ति. So words and its declensions are called as vibhaktis, okay? So, and the noun forms, all these are noun forms, right? So the noun forms are essentially in the declensions. The nouns are generally in the declensions, and the, this is the sixth declension, indicating the belongingness or the possessiveness of that particular noun form, okay? So we will try to practice this now. So it is tasya and kasya. Astu. So Abhishek Mahodaya.
Namaste Mahodaya.
Namaste Mahodaya. Can you please do it from here?
Saha Shankarah. Tasya nama Shankarah. Tasya nama kim? Kasya nama Shankarah.
Samichinam.
सः विवेकः, तस्य नाम विवेकः, तस्य किं, तस्य नाम विवेकः. सः सुरेशः, तस्य नाम सुरेशः, तस्य नाम किम्, कस्य नाम सुरेशः. सः कपिलः, तस्य नाम कपिलः, तस्य नाम किम्, कस्य नाम कपिलः.
अस्तु, अग्रे एतस्य.
एषः कुमारः, एतस्य नाम कुमारः, एतस्य नाम किम्, कस्य नाम कुमारः,
कस्य नाम कुमारः.
एषः अर्जुनः, एतस्य नाम अर्जुनः, एतस्य नाम किम्, कस्य नाम अर्जुनः. एषः सुन्दरः, एतस्य नाम सुन्दरः, एतस्य नाम किम्, कस्य नाम सुन्दरः. एषः प्रतापः, एतस्य नाम प्रतापः, एतस्य नाम किम्, कस्य नाम प्रतापः. एषः शिवः, एतस्य नाम शिवः, एतस्य नाम किम्, कस्य नाम शिवः. एषः अजयः, एतस्य नाम
अजयः. इट् इस् द ट्रान्स्लिटरेशन् इस् करेक्ट्.
एतस्य नाम किम्, कस्य नाम अजयः.
सो फार् For masculine, we are using sya, or we are adding the ragavah, ragasya, balakah, balakasya, saha balakah, balakasya, nama ragavah, saha balakah, balakasya, nama ragavah. Similarly, saha purushah, purushasya nama rajeshah, saha purushah, purushasya nama rajeshah. Similarly, saha vruddhah, वृद्धस्य नाम अर्जुनः. वृद्धस्य नाम अर्जुनः. सो वी केन् यूस् वित् रेफरेन्स् टु वाट् वी आर् रेफरिङ्ग् एण्ड् देन् एड् हियर् and that would take the form of the Shashti Vibhakti here. Astu? So that is how the usage is going to be. Vruddhasya nama Arjunaha. So similarly, Kulalaha, Kulalasya, Sainikaha, Sainikasya, Nartakaha, Nartakasya, Kulalasya nama Kumaraha, Sainikasya nama Markandeya, Nartakasya namaha सुरेशः. सो दट् इस् हौ वि आर् गोयिङ्ग् टु रेफर्. सिमिलर्लि छात्रः, छात्रस्य नाम शिक्षकः, शिक्षकस्य नाम वैद्यः, वैद्यस्य नाम. अस्तु. सो वि हाव् सिमिलर्लि हियर् वेरियस् वर्ड्स्. सो लेट् अस् आल्सो प्राक्टिस् दिस्. अरुण् महोदय.
नमस्कारः महोदय.
नमस्कारः महोदय.
चषकः, चषकस्य. गोपालकः, गोपालकस्य. सेवकः, सेवकस्य. चालकः, चालकस्य. लेखकः, लेखकस्य. प्रबन्धकः, प्रबन्धकस्य. अर्चकः, अर्चकस्य. व्याधः, व्याधः कस्य.
व्याधस्य.
पत्र, व्याधस्य. पत्रवितर, वितारकः, पत्रवितारकस्य. पुरोहितः, पुरोहितस्य. पाचकः, पाचकस्य. निर्देशकः, निर्देशकस्य.
समीचीनं महोदय. So how do we, so how do we use this, right? What are the various kind of uses? One usage that we saw was with respect to name. How is here is being added with respect to name, right? Tasya nama, etasya nama, vaidyasya nama, purohitasya nama, shikshakasya nama, chhatrasya nama, balakasya nama. The other is also with respect to belongingness, or if you want to refer, establish a relationship. For example, Dasharatasya putraha Ramaha. Okay, so the son of Dasharata is Rama. So the usage here will be Dasharatasya. Dasharataha is the father's name. The son's name is Ramaha. So we want to establish the relationship between these two names or to these persons. So how are we going to do this? Dasharatasya putraha Ramaha. Ramasya janakaha. The father of Rama is Dasharataha. The son of Dasharata is Rama. So Dasharatasya putraha Ramaha. Ramasya janakaha Dasharataha. Astu. So Dasharatasya putraha Ramaha. Ramasya janakah dasharatah. So this way we are establishing between the son and the father, and the father and the son. So if we want to say the son of Dasharata is Rama, then we are going to say Dasharatasya putraha. Putraha is son, and who is he? Ramaha. Dasharatasya putraha Ramaha. Similarly, Ramaha, Rama's father is Dasharatah. So we will say Ramasya janakah dasharatah, or Ramasya Pita Dasharataha. Janakaha or Pita. Asto? So we will also do this now. So Krishnamurti Mahodaya.
Namaskar Mahodaya.
Namaskar Mahodaya. Can you please do these relationships between these two columns?
Sure, sure, Mahodaya. Shivasya Putraha Ganeshaha. गणेशस्य जनकः शिवः. वसुदेवस्य पुत्रः कृष्णः. कृष्णस्य जनकः वसुदेवः. रावणस्य पुत्रः मेघनादः मेघनादस्य जनकः रावणः रामस्य पुत्रः लवः लवस्य जनकः रामः धृतराष्ट्रस्य पुत्रः दुर्योधनः दुर्योधनस्य जनकः धृतराष्ट्रः अर्जुनस्य पुत्रः अभिमन्युः अभिमन्योस्य जनकः अर्जुनः गौतमस्य पुत्रः शतानन्दः शतानन्दस्य जनकः गौतमः
समीचीनं महोदय
धन्यवादः
Agre, similarly we have here the relationship between a teacher and a student. So the student is Chhatrah, teacher is Acharyah. So Kshema Bhagini.
Parashurama-sya Chhatrah Karnah, Karnasya Guru Acharyah Parashurama-ha. Dronacharya-sya Chhatrah Ekalavyah एकलव्यस्य आचार्यः द्रोणाचार्यः रामकृष्णस्य छात्रः विवेकानन्दः विवेकानन्दस्य आचार्यः रामकृष्णः वसिष्ठस्य छात्रः रामः रामस्य आचार्यः वसिष्ठः आदिशङ्करस्य छात्रः पद्मपादः पद्मपादस्य छात्रः पद्मपादस्य आचार्यः आदिशङ्करः
समीचीनम् सो दिस् इस् द यूसेज् फार् पुंलिङ्गशब्दः वेर् स्य इस् बीङ्ग् एडेड् वित् रेस्पेक्ट् टु the noun form or the first declension and then changing its form to sixth declension or the shashti vibhakti. So similarly for feminine forms or the feminine words we have seen sa or yesha. Sa will become tasyah. Okay, in the sixth declension or in the shashti vibhakti the form of sa will become tasyah. Similarly, Esha will become Etasyah, Etasyah. This is the sixth declension or the Shashti Vibhakti of Sa and Esha. So, with respect to the reference, Sa Radha will become Tasyah Nama Radha. She is Radha. Her name is Radha. तस्याः नाम किम् सो वाट् ईस् हर् नेम् कस्याः नाम राधा हूस् नेम् इस् राधा दट् इस् हौ वि आर् गोयिङ्ग् टु आस् सा राधा तस्याः नाम राधा तस्याः नाम किम् वाट् ईस् हर् नेम् कस्याः नाम राधा हूस् नेम् इस् राधा So, for masculine, it is tasya. For feminine, is tasyah. The question form for masculine was kasya. For the feminine form, it is kasyah. Kasyah. That is how it is going to be. Astu. So, we will also do this now. Lalita Bhagini.
Haan, Mahoday. Namaskar.
Namaskar, Bhagini.
Shall I read?
Yes, Bhagini, please.
Sa Lata. Tasyaha Nama Lata. Tasyaha Nama Kim. Kasyaha Nama Lata. Sa Gopika. Tasyaha Nama Gopika. Tasyaha Nama Kim. Kasyaha Nama Gopika. सा अनु तस्याः नाम अनु तस्याः नाम किम् कस्याः नाम अनु सा राधिका तस्याः नाम राधिका तस्याः नाम किम् कस्याः नाम राधिका एषा कावेरी एतस्याः नाम कावेरी एतस्याः नाम किम् कस्याः नाम कावेरी सो फोर् तस्य एण्ड् एतस्य द क्वश्चन् विल् कम् कस्याः ओन्लि करेक्ट्
आं भगिनि
ओके 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 एषा माया एतस्याः नाम माया एतस्याः नाम किम् कस्याः नाम माया एषा यमुना एतस्याः नाम यमुना एतस्याः नाम किम् कस्याः नाम यमुना एषा मीरा एतस्याः नाम मीरा एतस्याः नाम किम् कस्याः नाम मीरा एषा जानकी एतस्याः नाम जानकी एतस्याः नाम किम् कस्याः नाम जानकी सा दुर्गा तस्याः नाम दुर्गा तस्याः नाम किम् कस्याः नाम लक्ष्मी दुर्गा नो शुड् बि नाम लक्ष्मी
आं भगिनि द ट्रान्स्लिट्रेशन् इस् करेक्ट् बट् दिस् इस् राङ्ग्
तस्याः नाम दुर्गा सा श्री तस्याः नाम श्री तस्याः नाम किम् कस्याः नाम श्री
समीचीनं भगिनि
थेङ्क् यु धन्यवादः महोदय
आम् आं भगिनि सो वि आर् एडिङ्ग् स्याः स्याः प्रीवियस् स्याः मास्क्युलैन् इट् वास् स्य फेमिनैन् इट् इस् स्याः सो द फार्म्स् वित् रेस्पेक्ट् टु द वर्ड्स् विल् बिकम् लैक् दिस् बालिका बालिकायाः सीता सीतायाः सूचिका सूचिकायाः अम्बा अम्बायाः अध्यापिका अध्यापिकायाः वैद्या वैद्या वैद्यायाः सो देट् इस् हौ दीस् फार्म्स् आर् बिकमिङ्ग् सिमिलर्ली देवी देव्याः अवन्ती अवन्त्याः नटी नट्याः गायकी गायक्याः अस्तु सो वी विल् आल्सो प्राक्टिस् दिस् प्रेमा भगिनी
नमस्कार
भगिनी Can you please do this?
Stalikayah pitika.
Petika. Petika.
Pitika. Pitika. Kuchikayah.
Panchalika.
Do you mind make the screen a little bit bigger?
Sure, Bhagni. Just give me a minute. Let me see. Screen mode.
So, yeah, thank you. Okay. Ambayaha adanika. Malayaha ni.
Bhagini, adhanika is also adhanika yaha. Please, both the columns you cue the sixth declension.
I changed the A to Ayaha on both sides.
Okay. Adhanika, probably we didn't hear. That's why I asked.
I'm sorry, I don't understand what you just said.
I said probably Adhanika, we didn't hear the Yaha form for it. If you could repeat, that would be great.
Okay. Adhanika Yaha. Adhanika Yaha Mala.
Mala, Mala Yaha.
Ah, Mala Yaha. So I add the Ayaha to the end on both sides.
Yes, Bhagini, yes.
Ah, okay, okay. Nidhanika Yaha, Sita Yaha.
Chitayaha.
Chai chakritayaha. Sanchitayaha. Jananikayaha. Latayaha. Naukayaha.
Samichinam. So Petika Yaha, Kunchika Yaha, पाञ्चालिकायाः मापिकायाः अम्बायाः अधानिकायाः मालायाः निधानिकायाः सीतायाः त्रिचक्रिकायाः सञ्चिकायाः जवनिकायाः लतायाः नौकायाः. सो इफ् यु वाण्ट् टु रेफर् टु दि आब्जेक्ट्स् प्लेस् आर् रेफरेन्स् देन् वि आर् गोयिङ्ग् टु यूस् दिस् फार्म् विच् इस् दि sixth declension by adding yaha for strilinga shabdah kunchika yaha astu. That is how the form is going to change. Astu bhagini agre. Sudindra mahodaya.
Am guruji.
Can you please do this?
Shaka Patram.
Okay, so the two words are given here. Please establish the relationship as given in one of these examples, like Shaka Patram. So the leaf of the branch will be translated as Shakayah Patram. So in Sanskritam it will become Shakayah Patram. Similarly, Utpitikas Pada, or the table's leg will become Utpitikayah पादः. अस्तु अस्तु महोदय.
अस्तु गुरुजि. उत्पीठिकायाः पादः. सिक्तवर्तिकायाः प्रकाशः. सरलायाः अनुजा. कुञ्चिकायाः तालः. जवनिकायाः वस्त्रं. पञ्चालिकायाः युतकम्. बालिकायाः नाम. स्नुषायाः कङ्कणं. छुरिकायाः तैक्षण्यं. अग्निपेटिकायाः अग्निशलका. अग्निशलाका. दिनपत्रिकायाः वार्ता. वार्तायाः विषयः. अजायाः शावकः.
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 समीचीनम्. Similarly, can you do this, Mohdya? With respect to the words, what is the Shashti Vibhakti for each of them?
भगिन्याः भगिन्याः. इस् दट् राइट् गुरुजि?
भगिन्याः. भगिनी भगिन्याः. समीचीनं.
भगिनी भगिन्याः. वेल्लनी वेल्लन्याः. पुष्पधानी पुष्पधानीयाः.
पुष्पधान्याः सो ई विल् बिकम्
पुष्पधान्याः कर्तरी कर्तर्याः बाष्पस्थाली बाष्पस्थाल्याः विद्यार्थिनी विद्यार्थिन्याः दर्वी दर्व्याः द्रोणी द्रोण्याः चषकदानी चषकदान्याः घटी घट्याः जङ्गमदूरवाणी जङ्गमदूरवाण्याः सम्मार्जनी सम्मार्जन्याः कूपी कूप्याः अङ्गुली अङ्गुल्याः गायत्री गायत्र्याः लक्ष्मी लक्ष्म्याः
समीचीनं महोदय बहु समीचीनम् अस्तु अग्रे
महोदय द प्रीवियस् स्लैड् केन् यू जस्ट् दट् रिलेशन्शिप् स्लैड् महोदय
आं महोदय
हा सो आल् द कास् will be will become kayaah
aam mohoday
okay and the knee will become
so okay. that will become the halantam and the yaah so bhagini
yeah.
will become bhaginyaah so the association
so half,
will be
half na
astam
okay 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 Thank
they
you.
will take the halantam form here halantam form of the last letter and then appended with yah
ha ha ma got it
atto so similarly we have sentences now where is this usage done one usage we saw it is with respect to the belongingness similarly we have the belongingness here so we have viji and lekhani so we want to say this pen is Viji's or this pen belongs to Viji so we will say Vidyaah Viji is the name of the lady or the feminine name so we want to say this pen belongs to Viji so Vidyaah Lekhani so this is Viji's pen or yesha Lekhani Vidyaah so we want to say this pen is Vidya's or this pen belongs to Vidya Viji then in sanskrit we'll say vidyaah lekhani similarly the pens ink we want to say this then lekhanyaah mashi so we have two words here lekhani and mashi mashi is basically ink so we want to say the ink of the pen or the pens ink then we will say lekhanyaah mashi similarly we want to say the inks bottle or the bottle containing ink mashyah koopi similarly koopyah varnah means bottle's color what is the bottle's color koopyah varnah kim koopyah varnah similarly pressure cooker's steam then we will say bhashpasthalyah bhashpah bhashpah बाष्पस्थाल्याः बाष्पः सिमिलर्ली रेसिडेन्स् आफ् पार्वती आर् पार्वतीस् रेसिडेन्स् वि विल् यूस् पार्वत्याः निवासः सिमिलर्ली द्रोणी जलं द्रोण्याः जलं सिमिलर्ली भवत्याः नाम किं दट् इस् वाट् वि लर्न् इन् द फस्ट् क्लास् इफ् यु आर् रेफरिङ्ग् टु द फेमिनैन् जेण्डर् अण्ड् वि वाण्ट् टु आस्क् द नेम् वाट् ईस् युवर् नेम् with respect then we are going to say bhavati is actually the word in sixth declension is what we had used previously now also it will become bhavatyah nama bhavatyah nama kim what is your name right if we want to ask with respect what is your name we are going to say bhavatyah nama kim similarly anguliyah anguliyakam so the ring fingers ring or the fingers ring we have to refer we will use anguliyah anguliyakam anguliyah anguliyakam similarly mantra gayatri's mantra or gayatri devi's mantra right so we say gayatriyah mantra kashyah maharajah काशीस् महाराजा विल् बिकम् काश्याः काश्याः महाराजः डाटर्स् डाटर् वि हाव् टु से शी इस् डाटर्स् डाटर् पुत्र्या पुत्र्याः पुत्री सिमिलर्ली द बेङ्क् आफ् कावेरी कावेर्याः तीरः सिमिलर्ली द फ्लो आफ् द रिवर् आर् द रिवर्स् फ्लो नद्याः प्रवाहः नद्याः प्रवाहः That is how the relationship is going to be formed using this sixth declension or which is referred to in Sanskrit as Shashti Vibhakti. So we have a few words here. Let us practice this. So Shanti Bhagni is there. Astu. Abhishek Mahodaya.
आं महोदय सीतायाः पतिः रामः रामस्य पत्नी सीता राधायाः पतिः कृष्णः कृष्णस्य पत्नी राधा उमायाः पतिः शङ्करः शङ्करस्य पत्नी उमा शारदायाः पतिः रामकृष्णः रामकृष्णस्य पत्नी शारदा कौसल्याः पतिः दशरथस्य पत्नी कौसल्या
समीचीनं महोदय अग्रे अरुण महोदय
आं महोदय कुन्त्याः पतिः पाण्डुराजः पाण्डुराजस्य पत्नी कुन्ती देवक्याः पतिः वासुदेवः वासुदेवस्य पत्नी देवकी पार्वत्याः पतिः शिवः शिवस्य पत्नी पार्वती दमयन्त्याः पतिः नलः नलस्य पत्नीः दमयन्ती कण्णगयाः पतिः कोवलाः कोवलस्य पत्नी कण्णगी
समीचीनं महोदय अस्तु सो फार् वी हाव् सीन् द स्त्रीलिङ्गशब्दः एण्ड् पुंलिङ्गशब्दः how sya or syaha is being appended at the end and we have seen the relationships how they are formed with respect to son father wife and husband right so sya and syaha are what are being appended at the end and the word form is changed with respect to sixth declension or the shashti vibhakti So we are establishing the relationship or the possessiveness. If we want to do this, then we are going for the Shashti Vibhakti. Astu? So, or for some kind of wantingness, we will see this later as well. When we want to do that also, we can use Shashti Vibhakti when it comes. And similarly, with respect to position also, we will use Shashti Vibhakti. These are the cases. Where we will see Shashti Vibhakti and also how this is going to be for the neuter gender. Neuter gender words also follow the masculine kind of endings. So let's say we have Pustakam. So the ending will become Pustakasya, Pushpam. पुष्पस्य फलं फलस्य व्यजनं व्यजनस्य द्वारं द्वारस्य नेत्रं नेत्रस्य सो द एण्डिङ्ग् विल् आल्सो बिकम् स्य वित् रेस्पेक्ट् टु नपुंसकलिङ्ग वर्ड्स् आर् द न्यूटर् जेण्डर् वर्ड्स् अस्तु सो विल् आल्सो सी हौ दिस् इस् विल् जस्ट् प्राक्टिस् दीस् एस् वेल् कृष्णमूर्ति महोदय
आं महोदय पुष्पं पुष्पस्य फलं फलस्य नयनं नयनस्य नेत्रं नेत्रस्य तोयं तोयस्य पर्णं पर्णस्य चिबुकं चिबुकस्य अन्तं अन्तस्य अन्नम् अन्नस्य अन्नम् अन्नस्य दुग्धं दुग्धस्य लवणं लवणस्य पात्रं पात्रस्य पत्रं पत्रस्य चित्रं चित्रस्य वनं वनस्य जलं जलस्य भवनं भवनस्य नखं नखस्य
समीचीनं महोदय अग्रे क्षमा भगिनी टू वर्ड्स आर् गिवन् प्लीज् ट्रै टु फार्म् द सेण्टेन्स् आर् एस्टाब्लिश् द रिलेशन्शिप् बिट्वीन् द टू वर्ड्स् विदिन् षष्ठी विभक्ति गृहं गृहस्य द्वारं
गृहस्य द्वारं फलस्य बीजं फलस्य बीजं I'm not able to make it big. मित्रस्य पत्नी वाहनस्य चालकः महाभारतस्य अध्यायः पुस्तकस्य पटुः
पुटः आर् पृष्ठः
पुटः सारि पुटः चलनचित्रस्य नटी पत्रस्य वर्णः वस्त्रस्य सूत्रं पुष्पस्य पुष्पदानि जीवनस्य लक्ष्यं मन्दिरस्य परिवारः परिसरः क्षेत्रस्य कूपः उद्यानस्य पुष्पम्
समीचीनम् उद्यानस्य पुष्पं समीचीनम् अस्तु सो हियर् वि सी हौ द बिलाङ्गिङ्ग्नेस् आर् आफ् संथिङ्ग् रैट् द हौस् इस् डोर् फलस्य बीजं मित्रस्य पत्नी सो दिस् इस् हौ द वर्ड्स् आर् चेञ्ज् वित् रेस्पेक्ट् टु दि असोसियेशन् आर् द बिलाङ्गिङ्ग्नेस् आफ् आर् टु से इट् इस् आफ् दट् पर्टिक्युलर् थिङ्ग् देन् वि आर् गोयिङ्ग् टु यूस् द षष्ठी विभक्ति for napunsakalingam as well and the form is similar to what we have seen with respect to but the masculine word form right so ramah ramasya similarly gruham gruhasya balakah balakasya phalam phalasya so similarly let's say we have Rama's photo here ramah asti dhanuh asti ramasya dhanuh the bow of Rama so Ramasya Dhanuh Ramasya Banah arrow of Rama Ramasya Banah Banah ityukte the arrow so Ramah asti Dhanuh asti Ramasya Dhanuh similarly arrow Banah asti Ramasya Banah the arrow of Rama So that is how the usage is going to be. Similarly, we have Krishnaha Asti Va. Is Krishna present? Yes. Venuhu Asti Va. Venuhu is the flute that Lord Krishna holds. And we want to refer to the Venu of or the flute of Krishna. Then we will say this as Krishnasya Venuhu. Kasya Venuhu? Whose flute? It is Krishna's flute, Krishnasya Venuhu. कस्य वेणुः कृष्णस्य वेणुः सिमिलर्ली कृष्णस्य पत्नी का हू इस् कृष्णास् वैफ् कृष्णस्य पत्नी राधा कृष्णस्य पत्नी का कृष्णस्य पत्नी राधा विल् बि अवर् आन्सर् सो दिस् इस् हौ वि आर् गोयिङ्ग् टु यूस् द सिक्स्त् डिक्लेन्शन् आर् द षष्ठी विभक्ति सो रामः रामस्य वृक्षः वृक्षस्य we will try to do this with respect to few of the words that we have done some of them already let me see if any story is there or we can see how the words are there okay there is no story with respect to Shashti Vibhakti So we'll practice the words and then we can stop it for today. Astu. So, Lalita Bhagini, so there are few words here with respect to masculine gender. Can you please convert them into the sixth declension form for these words?
Okay. Krishakaha, Krishakasya. Sainikaha, Sainikasya. आरक्षकः आरक्षकस्य वैद्यः आरक्षस्य आरक्षकः आरक्षकः आरक्षकस्य करेक्ट्
ओके
वैद्यः वैद्यः वैद्यस्य चित्रकारः चित्रकारस्य भारवाहः भारवाहस्य चर्मकारः चर्मकारस्य तन्त्रज्ञः तन्त्रज्ञस्य कर्मकारः कर्मकारस्य नर्तकः नर्तकस्य लिपिकारः लिपिकारस्य नटः नटस्य धीवरः धीवरस्य सुवर्णकारः सुवर्णकारस्य आपणिकः आपणिकस्य विक्रयकः विक्रयकस्य ग्राहकः ग्राहकस्य
समीचीनं भगिनि अग्रे प्रेमा भगिनी आं भगिनि
नमस्कार गोपालकः गोपालकस्य एवाकः एवाकस्य अध्यापकः अध्यापकस्य चालकः चालकस्य
लेखकः
लेखकः लेखकस्य प्रबद्धकः प्रबद्धकस्य निर्देशकः निर्देशकस्य
this is not shang it will become only shakah nirdeshakah
shakah nirdeshakah nirdeshakasya achakayah achakasya
archakah
kah achakah achakasya व्याव्याव्याताः व्यातास्य पत्रवितारकः पत्रवितारकस्य गायकः गायकस्य पुरोहितः पुरोहितस्य नायकः नायकस्य पाचकः पाचकस्य छात्रैः छात्रैस्य
छात्रः
छात्रः छात्रस्य
समीचीनं भगिनि बहु समीचीनम् अस्तु भगिनि अग्रे सुधीन्द्रमहोदय सो वी हेव् टू वर्ड्स् प्लीस् ट्रै टु एस्टाब्लिश् द रिलेशन्शिप् बिट्वीन् द वर्ड्स् एस् गिवन् इन् वन् आफ़् द इलुस्ट्रेशन् रामः कुन्दकः कन्दुकः रामस्य कन्दुकः
गोपालकः सारी गोपालस्य गृहं गणेशस्य मूषकः स्कन्दस्य मयूरः श्लोकस्य छन्दः वृक्षस्य बिलं कामदेवस्य बाणः अभिषेकस्य अम्बा छात्रस्य लेखनी पुत्रस्य पुत्रः बालकस्य द्विचक्रिका जनकस्य कारयानम्
कारयानम्
पितामहस्य उपनेत्रं सूर्यस्य तापः
समीचीनम् अग्रे अभिषेक् महोदय अभिषेक् महोदय अयुधे
क्षम्यतां महोदय
अस्तु महोदय यु आर् अन्म्यूट् अस्तु महोदय
क्षम्यतां क्षम्यतां
चिन्ता मास्तु केन् यु प्लीस् एस्टाब्लिश् द रिलेशन्शिप् बिट्वीन् दीस् वर्ड्स् दट् आर् गिवन् हियर् सो एस् इलिस्ट्रेटेड् रामः पत्नी सीता रामस्य पत्नी सीता
कृष्णस्य कृष्णः पत्नी रुक्मिणी कृष्णस्य पत्नी रुक्मिणी ओबामा महोदयः पत्नी मिशेले ओबामा महोदयस्य पत्नी मिशेल् दशरथः पुत्रः रामः दशरथस्य पुत्रः रामः जनकः पुत्री मैथिली जनकस्य पुत्री मैथिली अरविन्दः कार्यानं मर्सिडीस् अरविन्दस्य कार्यानं मर्सिडीस् स्कन्दः वाहनः मयूरः स्कन्दस्य वाहनं मयूरः नारायणः वाहनं गरुडः नारायणस्य वाहनं गरुडः
समीचीनं महोदय धन्यवादः अस्तु सो वी हाव् दीस् थिङ्ग्स् देट् वी हाव् डन् आलरेडि सो सिमिलर्ली वी हाव् एक्ससैजस् इन् अवर् अभ्यासपुस्तकं बुक् एस् वेल् एतस्य नाम रामः तस्य नाम कृष्णः सो वी विल् कम्प्लीट् दिस् एस् वेल् एण्ड् देन् देर् आर् फ्यू exercises that could be done as part of homework so we will complete this so Arun Mahodaya can you please do these exercises
etasya nama ramah tasya nama krishnah etasya namah ganeshah
namah namah
nama namah ha एतस्य नाम गणेशः तस्य नाम आञ्जनेयः एतस्य नाम शिवः तस्य नाम बुद्धः एतत् दिस् बिकम्स् एतत् नो
एतत् विल् बिकम् एतत्
रामायणम्
एतस्य नाम रामायणम् एतत् रामायणम् आर् एतत् पुस्तकं रामायणम्
एतस्य नाम रामायणम् विल् इट् बिकम् लैक् देट् महोदय बिकास् देट् इस् अ बुक् केन् बि एतस्य नाम रामायणम्
Yes, that is right, Mahodaya. For Napunsaka Linga Shabda also, Shabdaha also, it will take the form as what is there in masculine. So, Etat will become Etasya, Eshaha is also Etasya, Saha is Tasya, Tat is also Tasya.
Okay. Etasya Nama Ramayanam, Tasya Nama Mahabharatam.
Samichinam.
एतस्याः नाम उमा तस्याः नाम गीता एतस्याः नाम लीला तस्य नाम रमा तस्याः नाम रमा एतस्याः नाम लक्ष्मीः तस्याः नाम सरस्वती
समीचीनं महोदय अस्तु सो दीस् आर् आं महोदय सो दीस् आर् वर्ड्स् अण्ड् द यूसेजस् फार् एक्साम्पल् इन् द फस्ट् सेण्टेन्स् हियर् आवर्णे विद्यमानस्य पदस्य उचितं रूपं रिक्तस्थले लिखतु इस् वाट् इस् द इन्स्ट्रक्षन् गिवेन् इन् दिस् फस्ट् सेण्टेन्स् हियर् 1.9 अ इन् अवर् अभ्यासपुस्तकं बुक् आवर्णे विद्यमानस्य पदस्य उचितं रूपं रिक्तस्थले लिखतु सो रैट् द करेक्ट् फार्म् आफ् द वर्ड् दट् हेस् बिन् गिवन् इन् द ब्राकेट् इस् वाट् इस् गिवन् हियर् सो सरयू नदी तीरे अयोध्या अस्ति सो वि केनाट् से सरयू नद्याः सो इट् इस् द बेङ्क् आफ् द रिवर् वेर् अयोध्या एक्सिस्ट् दट् इस् हौ वि वाण्ट् टु रेफर् टु सो सरयू नदी इस् द name of the river and where does this Ayodhya city is present we will say it is on the banks of Sarayu Nadi so in here the usage will become Sarayu Nadyaha Tire Ayodhya Asti right that is where the city Ayodhya is on the banks of Sarayu Nadi similarly Ayodhya is given and then raja dasharatha so ayodhya's raja is dasharatha is what needs to be done or is to be referred to it will become ayodhyayah raja dasharatha similarly there are words that have been given in the brackets so as part of this week's homework please try to complete this page where the word and its sixth declension or the shashti vibhakti has to be used
Mahodaya, I have just one question, please.
Yes, Mahodaya, please go ahead.
Ayodhyaha. So, can we also say Ayodhyasya Raja Dasharataha?
Okay. Ayodhyasya, because this is actually Ayodhya, this is Akaranta, Strilinga Shabdaha. So, we are going to use here Ayodhyayaha. Similarly, for Kashi, it will become Kashyaha. So that is how the usage is going to be, Maudya, here.
Yes, but the next one, Dasharatasya, is it?
Because the word is basically, the form is a Pumlinga word.
Got it.
So depending on the word, please try to change the form into its sixth declension.
Dhanyavad,
Maudya. Maudya. Astu, so today we will end here. This is the homework for this exercise. Please practice these words. And apart from this, for the relationships that you find or that you have with others, try to form those sentences.
Can I ask a question?
Uh-huh.
Sorry, go back to your PowerPoint. Yeah, at the beginning today, when you ask the question, when it is a pomlinga, you use ha, kaha. But then when it is a stringlingam, you use the saha kim and not saha ka. Is there a reason for that? Like, okay. For example, this one is itasya nama kim, and when's the feel feminine, why is it not a ka or kaha?
Okay, so the way we are using the questions here is, who is Rama? The question will be kaha ramah. Who is Rama? We want to ask, who is Rama? Then the question will be kaha ramah. That is how the question will be. Now we want to ask, what is his name? Then it will become etasya namakim. Similarly,
as long as you have the you have the itasya or the itasya ha, then people know it's his name or her name. So, and the M, we could just use Kim and don't have to worry about ka or kaha. Is that correct?
Samichinam. Yes, Bhagini. Samichinam. Yes.
Okay. Is kasya, who, is that for all male, female, and neuter, or is this kasya only for male and neuter?
It is right. It is only for the male and the neuter gender. Kasyaha is for feminine.
Kasyaha is feminine. Okay, thank you.
Yes. Asto, any other question?
Mahoday, Bhagini was asking, I had the same doubt.
Mm-hmm.
Can it not be, the question cannot be tasyah nama ka? Is it wrong to ask like that?
The formation is right, but what are we trying to ask, Mahodaya? Kasyah namaka, whose name is what is going to be the question then, right? So if you are referring to a particular person, then we are saying kasyah nama Shri is whose name is Shri. We are asking in general, but kasyah nama ka is already a question. Whose name is who?
No, tasyah nama kim, instead of tasyah nama kim, can we ask tasyah nama ka?
That's because nam is napunsakling.
Yes. Kim, and what kim. Is, yes, nam is, yes, correct, yeah.
Nam is napumsakling, so it should be Kim, is it?
Kim, what is his name? That is what we are asking, right, Mahodaya. So, here, the name or the nam is basically napumsakling, and as Mahodaya said, what is his name? That is why we are using Kim as the shabda to ask the name of that person.
Then if it, instead of tasyaha, if you use yesha nama ka,
no.
That is correct?
Yesha nama ka. Yesha means
somebody is unmuted. Can you mute, please? I'm not able to hear. Mahode, you are saying something.
So, yesha nama ka. So, who namaka, it sounds correct, but esha nama kim would be more appropriate than ka. So we are, okay. If the name is something that we are asking, so ka radha, so who is radha, that would become more appropriate for the ka radha. Ka sita, who is sita? Or kasyaha nama sita, kasyaha nama radha, that would become more appropriate.
I think by usage only you learn, I think.
Amorya.
Saka, we say, no?
Saka. Who is she? That is more appropriate, Amorya. Saka, that is already there. So, who is she? Then the answer might be Sa Radha. So, because we are referring to the person, the third person here, so that is why Saka is what is more appropriate.
Dhanyavad, Amorya. Thank you.
Astu, so if there are no additional questions, then we will end our session with Shanti Mantram. Om Sarve Bhavantu Sukhinah, Sarve Santu Niramayah, Sarve Bhadrani Paschantu, Ma Kaschid Dukha Bhag Bhavet. Om Shanti, Shanti, Shanti hi. Astu, dhanyavadah, punam milama.
Dhanyavad.
Dhanyavad. Dhanyavad.